स्नातस्य प्रतिमस्य मेरुशिखरे शच्या विभूषैषवे रूपालोकन विस्मया हृतरस भ्रान्त्या भ्रमच्चक्षुषा उन्मृष्टं नयन प्रभाधवलितं क्षीरोदकाशङ्कया वक्त्रं यस्य पुनः पुनः सजयति श्रीवर्धमानोजिना हंसां साहत पद्मरेणुकपिश क्षीरार्णवाम्बुभृतै कुम्भै सरसाम्पयोधरभर प्रस्पर्धिभि काञ्चनै येषां मन्दररत्नशैलशिखरे जन्माभिषेकः कृतः सर्वै सर्वसुरासुरेश्वरगणै स्तेषां नतोऽहं क्रमान् अर्हद्वत्र प्रसूतं गणधररचितं द्वादशाङ्गं विशालं चित्रं बह्वर्थयोक्तं मुनिगणवृषभैर्धारितं बुद्धिमद्भिः मोक्षाग्रद्वारभूतं व्रतचरणफलं ज्ञेयभावप्रदीपं भक्त्या नित्यं प्रपद्ये श्रुतमहमखिलम् सर्वलोकैकसारम् निष्पङ्कव्योमनीलद्युतिमलसदृशं बालचन्द्राभदंष्ट्रं मत्तं घण्टारवेण प्रसृतमदजलं पूरयन्तं समन्तात् आरूढो दिव्यनागं विचरति गगने कामदः कामरूपी यक्षः सर्वानुभूतिर्दिशतु मम सदा सर्वकार्येषु सिद्धिम्।